ಪೀತಾಂಬರಧರಂ ವಿಷ್ಣುಂ ಸಸಿವರ್ಣಂ ಚತುರ್ಭುಜಂ ಪ್ರಸನ್ನವದನಂ ಧ್ಯಾಯೇತ್ ಸರ್ವ ವಿಘ್ನೋಪಶಾಂತಯೇ ವ್ಯಾಸಂ ವಶಿಷ್ಠ ನಪ್ತಾರಂ ಸಕ್ತೇ ಪೌತ್ರಮಕಲ್ಮಷಂ ಪರಾಸರಾತ್ಮಜಂ ವಂದೇ ಸುಖತಾತಂ ತಪೋನಿಧಿಂ ವ್ಯಾಸಾಯ ವಿಷ್ಣು ರೂಪಾಯ ವ್ಯಾಸ ರೂಪಾಯ ವಿಷ್ಣವೇ ನಮೋ ವೈ ಬ್ರಹ್ಮ ನಿಧಯೇ ವಾಸಿಷ್ಠಾಯ ನಮೋ ನಮಃ ಅವಿಕಾರಾಯ ಶುದ್ಧಾಯ ನಿತ್ಯಾಯ ಪರಮಾತ್ಮನೇ ಸದೈಕ ರೂಪ ರೂಪಾಯ ವಿಷ್ಣವೇ ಸರ್ವಜಿಷ್ಣವೇ ಯಸ್ಯ ಸ್ಮರಣ ಮಾತ್ರೇಣ ಜನ್ಮ ಸಂಸಾರ ಬಂಧನಾತ್ ವಿಮುಚ್ಯತೆ ನಮಸ್ತಸ್ಮೈ ವಿಷ್ಣವೇ ಪ್ರಭ ವಿಷ್ಣವೇ ಓಂ ನಮೋ ವಿಷ್ಣವೇ ಪ್ರಭ ವಿಷ್ಣವೇ ಶ್ರೀ ವೈಶಂಪಾಯ ನೌವಾಚ ಶುತ್ವಾ ಧರ್ಮಾನ ಶೇಷೇನ ಪಾವನಾನಿ ಚ ಸರ್ವಸಃ ಯುಧಿಷ್ಠಿರಸ್ತಾಂತನವಂ ಪುನರೇವಾಭ್ಯಭಾಷತ ಯುಧಿಷ್ಠಿರೌವಾಚ ಕಿಮೇಕಂ ದೈವತಂ ಲೋಕೇ ಕಿಂ ವಾಪ್ಯೇಕಂ ಪರಾಯಣಂ ಸ್ತುವಂತಃ ಕಂ ಕಮಚ್ಚಂತಃ ಪ್ರಾಪ್ನುಯುರ್ಮಾನವಾ ಶುಭಂ ಕೋ ಧರ್ಮ ಸರ್ವಧರ್ಮಾಣಾಂ ಭವತಃ ಪರಮೋ ಮತಃ ಕಿಂ ಜಪನ್ಮುಚ್ಯತೇ ಜಂತು ಜನ್ಮ ಸಂಸಾರ ಬಂಧನಾತ್ ಶ್ರೀ ಭೀಷ್ಮ ಉವಾಚ ಜಗತ್ಪ್ರಭುಂ ದೇವದೇವಮನಂತಂ ಪುರುಷೋತ್ತಮಂ ಸ್ತುವನ್ನಾಮ ಸಹಸ್ರೇಣ ಪುರುಷ ಸತತೋತ್ಥಿತಃ ತಮೇವ ಚಾಚಯನ್ ನಿತ್ಯಂ ಭಕ್ತ್ಯಾ ಪುರುಷಮವ್ಯಯಂ ಧ್ಯಾಯನ್ ಸ್ತುವನ್ನಮಸ್ಯಂಚ ಯಜಮಾನಸ್ತಮೇವ ಚ ಅನಾದಿನಿಧನಂ ವಿಷ್ಣುಂ ಸರ್ವಲೋಕಮಹೇಶ್ವರಂ ಲೋಕಾಧ್ಯಕ್ಷಂ ಸ್ತುವನ್ ನಿತ್ಯಂ ಸರ್ವದುಃಖಾತಿಗೋ ಭವೇತ್ ಬ್ರಹ್ಮಣ್ಯಂ ಸರ್ವಧರ್ಮಜ್ಞಂ ಲೋಕಾನಾಂ ಕೀರ್ತಿವರ್ಧನಂ ಲೋಕನಾಥಂ ಮಹದ್ಭೂತಂ ಸರ್ವಭೂತಭವೋದ್ಭವಂ ಏಷ ಮೇ ಸರ್ವಧರ್ಮಾಣಾಂ ಧರ್ಮೋಧಿಕತಮೋ ಮತಃ ಯದ್ಭಕ್ತ್ಯಾ ಪುಂಡರೀಕಾಕ್ಷಂ ಸವೈರಶ್ಚೇನ್ನರಃ ಸದಾ ಪರಮಂ ಯೋ ಮಹತ್ತೇಜ ಪರಮಂ ಯೋ ಮಹತ್ತಪಃ ಪರಮಂ ಯೋ ಮಹದ್ಬ್ರಹ್ಮ ಪರಮಂ ಯಃ ಪರಾಯಣಂ ಪವಿತ್ರಾಣಾಂ ಪವಿತ್ರಂ ಯೋ ಮಂಗಳಾನಾಂ ಚ ಮಂಗಳಂ ದೈವತಂ ದೇವತಾನಾಂ ಚ ಭೂತಾನಾಂ ಯೋ ವ್ಯಯಃ ಪಿತಾ ಯತಃ ಸರ್ವಾಣಿ ಭೂತಾನಿ ಭವಂತ್ಯಾದಿ ಯುಗಾಗಮೇ ಯಸ್ಮಿನ್ ಚ ಪ್ರಳಯಂ ಜ್ಞಾಂತಿ ಪುನರೇವಾ ಯುಗಕ್ಷಯೇ ತಸ್ಯ ಲೋಕ ಪ್ರಧಾನಸ್ಯ ಜಗನ್ನಾಥಸ್ಯ ಭೂಪತೇ ವಿಷ್ಣುರ್ನಾಮ ಸಹಸ್ರಂ ಮೇ ಶೃಣು ಪಾಪ ಭಯಾಪಹಂ ಯಾನಿ ನಾಮಾನಿ ಗೌಣಾನಿ ವಿಖ್ಯಾತಾನಿ ಮಹಾತ್ಮನಃ ಋಷಿಭಿಃ ಪರಿಗೀತಾನಿ ತಾನಿ ವಕ್ಷ್ಯಾಮಿ ಭೂತಯೇ ಋಷಿರ್ನಾಮ್ನಾಂ ಸಹಸ್ರಸ್ಯ ವೇದವ್ಯಾಸೋ ಮಹಾಮುನಿಃ ಛಂದೋನುಷ್ಟುಪ್ ತಥಾ ದೇವೋ ಭಗವಾನ್ ದೇವಕೀ ಸುತಃ ಅಮೃತಾಂಶೋದ್ಭವೋ ಬೀಜಂ ಶಕ್ತಿರ್ದೇವಕಿ ನಂದನಃ ತ್ರಿಸಾಮಾ ಹೃದಯಂ ತಸ್ಯ ಶಾಂತ್ಯರ್ದೇವಿ ನಿಯುಜ್ಯತೇ ವಿಷ್ಣುಂ ಜಿಷ್ಣುಂ ಮಹಾವಿಷ್ಣುಂ ಪ್ರಭ ವಿಷ್ಣುಂ ಮಹೇಶ್ವರಂ ಅನೇಕ ರೂಪ ದೈತ್ಯಾಂತಂ ನಮಾಮಿ ಪುರುಷೋತ್ತಮಂ ಹಸ್ಯ ಶ್ರೀ ವಿಷ್ಣುರ್ದಿವ್ಯ ಸಹಸ್ರನಾಮ ಸ್ತೋತ್ರ ಮಹಾಮಂತ್ರಸ್ಯ ಶ್ರೀ ವೇದವ್ಯಾಸೋ ಭಗವಾನ್ ಋಷಿಃ ಅನುಷ್ಟುಪ್ ಛಂದಃ ಶ್ರೀ ಮಹಾವಿಷ್ಣು ಪರಮಾತ್ಮ ಶ್ರೀಮನ್ನಾರಾಯಣೋ ದೇವತಾ ಅಮೃತಾಂಶುದ್ಭವೋ ಭಾನುರಿತಿ ಬೀಜಂ ದೇವಕೀ ನಂದನ ಸೃಷ್ಟೇತಿ ಶಕ್ತಿಃ ಉದ್ಭವ ಕ್ಷೋಭಣೋ ದೇವ ಇತಿ ಪರಮೋ ಮಂತ್ರಃ ಶಂಖ ಬೃನ್ನಂದ ಕೀ ಚಕ್ರೀತಿ ಕೀಲಕಂ ಸಾರ್ಧ ತನ್ವಾ ಗದಾಧರ ಇತ್ಯಸ್ತ್ರಂ ರಥಾಂಗ ಪಾಣಿ ರಕ್ಷೋಭ್ಯ ಇತಿ ನೇತ್ರಂ ತ್ರಿಸಾಮ ಸಾಮಗ ಸಾಮೇತಿ ಕವಚಂ ಆನಂದಂ ಪರಬ್ರಹ್ಮೇತಿ ಯೋನಿಃ ಋತು ಸುದರ್ಶನ ಕಾಲ ಇತಿ ದಿಗ್ಬಂಧ ಶ್ರೀ ವಿಶ್ವರೂಪ ಇತಿ ಧ್ಯಾನಂ ಶ್ರೀ ಮಹಾವಿಷ್ಣು ಪ್ರೀತ್ಯರ್ಥೇ ಸಹಸ್ರನಾಮ ಜಪೇ ವಿನಿಯೋಗ ಧ್ಯಾನಂ ಕ್ಷೀರೋಧನ್ಮತ್ ಪ್ರದೇಶೇ ಶುಚಿಮಣಿ ವಿಲಸತ್ ಸೈಕತೆ ಮೌಕ್ತಿಕಾನಾಂ ಮಾಲಾ ಕೃಪ್ತಾಸನಸ್ಥ ಸ್ಫಟಿಕ ಮಣಿ ನಿಭೈರ್ಮೌಕ್ತಿಕೈರ್ಮಂಡಿತಾಂಗ ಶುಭ್ರೈರಭ್ರೈರದಭ್ರೈರುಪರಿವಿರಚಿತೈರ್ಮುಕ್ತ ಪೀಯೂಷ ವರ್ಷೈಃ ಆನಂದೀನ ಪುನೀಯ ದರಿನರಿಣ ಗಧಾ ಶಂಖಪಾ ನಿರ್ಮುಕುಂದ ಭೂಪಾದವ್ಯಶ್ಚ ನಾಭಿರ್ವಿಯದ ಸುರನಿಲಶ್ಚಂದ್ರ ಸೂರ್ಯೌ ಚ ನೇತ್ರೇ ಕರ್ಣಾವಾಸಾಸಿದೌದ್ಯೋನ್ಮುಖಮಪಿ ದಹನೋ ಯಸ್ಯ ವಾಸ್ತೇಯಮಬ್ಧಿಃ अन्तस्थं यस्य विश्वं सुरणरखगगो भोगि गन्धर्वदैत्यैः चित्रं रं रम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॐ नमो भगवते वासुदेवाय शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाकारं गगनसदृशं मेघवर्णं शुभांगं लक्ष्मीकांतं कमलनयनं योगिहृद्यानगम्यं वंदे विष्णुं भवभयहरं सर्वलोकैकनादं मेघश्यामं पीतकौसेयवासं श्रीवत्सांगं कौस्तुभोद्भासितांगं पुण्योपेतं पुंडरीकायताक्षं विष्णुं वंदे सर्वलोकैकनादं नमः समस्तभूतानां आदिभूताय भूभृते अनेकरूपरूपाय विष्णवे प्रभ विष्णवे सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणं सहारवक्षस्थलशोभिकौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् छायायां पारिजातस्य हेमसिंहासनोपरि आसीनमम्बुदश्याममायताक्षमलङ्कृतम् चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसं रुक्मिणी सत्यभामाभ्यां सहितं कृष्णमाश्रये ॐ विश्वं विष्णुर्वशत्कारो भूतभव्यभवत्प्रभुः भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानां परमागतिः अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च योगो योगविदां नेता प्रधानः पुरुषेश्वरः नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः सर्वः सर्वशिवस्थानुभूताधिर्निधिरव्ययः सम्भवो भावनो भर्ता प्रभव प्रभुरीश्वरः स्वयंभू शम्भुरादित्या पुष्कराक्षो महासनः अनादिधनोधाता विधाता धातुरुत्तमः अप्रमेयो ऋषिकेश पद्मनाभोमर प्रभुः विश्वकर्मा मनुस्त्वष्टास्तविष्टस्तविरो ध्रुवः अग्राह्यः शाश्वतः कृष्णो लोहिताक्ष प्रतर्दनः प्रभूतस्त्रिककुब्धामा पवित्रं मङ्गलं परम् ईशान प्राणद प्राणो ज्येष्ठ श्रेष्ठ प्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रमः अनुत्तमो दुरादर्श कृतज्ञ कृतिरात्मवान् सुरेशः शरणं सन्मा विश्वरेता प्रजाभवः अहः संवत्सरो व्याळ प्रत्ययः सर्वदर्शनः अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः वृषा कपिल मे यत्ना सर्वयोग विनिश्रुतः वसुर्वसुमना सत्या समात्मा संवितः समः अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः हृदो बहुशिरा बभ्रू विश्वयोनिःशुचिश्रवाः अमृतः शाश्वतस्थानुवरारोहो महातपाः सर्वगः सर्वविद्वानुर्विश्वक्सेनो जनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित्कविः लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः चतुरात्मा चतुर्व्यूहश्चतुर्दंशः चतुर्भुजः भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः अनघो विजयो जेता विश्वयोनिः पुनर्वसुः उपेन्द्रो वामनः प्रांशु अमोघः शुचिरूजितः अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः वेद्यो वैद्य सदा योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देश वपुः श्रीमान् अमेयात्मा महादृदृक् महेश्वासो महीभर्ता श्रीनिवासः सताङ्गतिः अनिरुद्धः सुरानन्दो गोविन्दो गोविदाम्पतिः मरीचित्तमनोहंस सुपर्णो भुजगोत्तमः हिरण्यनाभः सुतपा पद्मनाभः प्रजापतिः अमृत्युः सर्वदृक्सिंहा सम्भ्राता सन्धिमा स्थिरः अजो दुर्मर्शनः शास्त्र विश्रुतात्मा सुरारिः गुरुर्गुरुतमो धाम सत्यः सत्य पराक्रमः निमिषो निमिषस्रग्वी वाचस्पतिरुधारतिः अग्रणी ग्रामणी श्रीमान् न्यायो नेता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् आवर्तनो निवृतात्मा संवृतः संप्रवर्तनः अहस्संवर्तको वह्निरनिलो धरणीधरः सुप्रसाद प्रसन्नात्मा विश्वश्रुद्विश्वभुग्विभुः सत्कर्ता सत्कृतः साधु जह्नुर्नारायणो नरः असङ्ख्येयो प्रमेयात्मा विशिष्टशिष्टकृच्छुचिः सिद्धार्था सिद्धसङ्कल्पा सिद्धिदः सिद्धिसाधनः वृषा हि वृषभो विष्णु वृषपर्वा वृषोदरः वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुतो वसुः नैकरूपो बृहद्रूपाशिविष्टप्रकाशनः ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः रुद्धस्पष्टक्षरो मन्त्राश्चन्द्रान्सुद्भास्करज्युतिः अमृतान्सुद्भवो भानुस्यसि बिन्दुः सुरेश्वरः औषधम् जगतस्येतु सच्च धर्म पराक्रमः भूतभव्य भवन्नाद पावनः पावनो नरः कामः कामकृत्कान्ता कामः कामप्रद प्रभुः युगादिकृद्युगावर्तो नैकमायो महासनः अदृश्यो व्यक्तरूपश्च सहस्रजितनन्तजित् इष्टो विशिष्टः शिष्ठेष्टा शिखण्डी नहुषो वृषः क्रोधः क्रोधकृत्कर्ता विश्वबाहुर्महीधरः अच्युतः प्रदितः प्राणः प्राणदो वासवानुजः अपामिधिरधिष्ठानामप्रमत्तः प्रतिष्ठितः स्कन्दस्कन्दधरो धुर्यो वरदो वायुवाहनः वासुदेवो बृहत्पान आदिदेवो पुरन्दरः अशोकस्तारणस्तारः सूरसौरजनेश्वरः अनुकूलस्वतावर्तः पद्मी पद्मनिपेक्षणः पद्मनाभोरविन्दाक्ष पद्मगर्भशरीरभृत् महर्दिरुद्धो वृद्धात्मा महाक्षो गरुडध्वजः अतुलो सरभो भीमा समयज्ञो हविर्हरिः सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितञ्जयः वीक्षरो रोहितो मार्गो हेतुर्दामोदरः सह महीधरो महाभागो वेगवानमितासनः उद्भवक्षोभणो देव श्रीगर्भः परमेश्वरः करणम् कारणम् कर्ता विकर्ता गहनो गुहः व्यवसायो व्यवस्थानः संस्थानस्थानदो ध्रुवः परग्धि परमस्पष्टा तुष्टः पुष्टः सुभेक्षणः रामो विरामो विरजो मार्गो नेयो नयो नयः वीरशक्तिमताम् श्रेष्ठो धर्मो धर्मविदुत्तमः वैकुण्ठः पुरुष प्राणः प्राणदः प्रणवः पृदुः हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरदौषजः ऋतुः सुदस्य नः कालः परमेष्टि परिग्रहः उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्तारस्तावरस्ताणु प्रमाणम् बीजमव्ययम् अर्थो नर्थो महाकोशो महाभागो महाधनः अनिर्भिन्नस्तविष्टो भूधर्मयूपो महामकः नक्षत्रणेभ्य नक्षत्री क्षमक्षामः समीहनः यज्ञ इज्यो महेज्यश्च क्रतुः सत्रम् सताम् गतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् सुकृतः सुमुखः सूक्ष्म सुघोषः सुखदः सुहृत् मनोहरोजितक्रोधो वीरबाहुर्विदारणः स्वापन स्ववसो व्यापी नैकात्मा नैककर्मकृत् वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः धर्मगुद्धर्मकृद्धर्मी सदसच्चरमक्षरम् अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः गभस्तिनेमि सत्त्वस्था सिंहो भूतमहेश्वरः आदिदेवो महादेवो देवेशो देवभृद्गुरुः उत्तरो गोपतिर्गोप्ता ज्ञानगम्या पुरातनः शरीरभूतभृद्भोक्ता कपीन्द्रो भूरि दक्षिणः सोमपोमृतपः सोम पुरुजित्पुरुषोत्तमः विनयो जयः सत्यसन्धो दासार्हः सात्वताम् पतिः जीवो विनयिता साक्षी मुकुन्दो मितविक्रमः अम्भो निधिरनन्तात्मा महो दधिशयोऽन्तकः अजो महार्हः स्वाभाव्योदिता मित्रप्रमोदनः आनन्दोऽनन्दनो नन्दः सच्च धर्मा त्रिविक्रमः महर्षि कपिलाचार्य कृतज्ञो मेधिनीपतिः त्रिपदस्त्रिदसाध्यक्षो महाशृङ्गः कृतान्तकृत् महावराहो गोविंदो सुषेण कनकांगदी गुह्यो गभीरो गहनो गुप्तश्चक्र गदाधरः वेदस्वांगोदित कृष्णो दृढ़ संकर्षण उच्युतः वरुणो वारुणो वृक्ष पुष्कराक्षो महामनाः भगवान् भगहानंदी वनमाली हलायुधः आदित्यो ज्योतिरादित्य सहिष्णुर्गति सत्नमः सुधन्वा कंड परशुद्धारुणो द्रविण प्रदः दिविस्तुत्सर्व दुर्व्यासो वाचस्पतिरयो निजः त्रिसाम सामगस्साम निर्वाणं भेषजं विसक् संन्यासकृच्चमस्सान्तो निष्ठा शान्ति परायणम् सुभाङ्गस्सान्ति दस्रष्टा कुमुदः कुवलेशयः कोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः अनिवर्ति निरुत्तात्मा संक्षेप्ता क्षेम कृच्छिवः श्रीवत्स वक्षा श्रीवास श्रीपति श्रीमताम्बरः श्रीधर श्रीस श्रीनिवास श्रीनिधि श्रीविभावनः श्रीधर श्रीकर श्रेय श्रीमालोकत्रयाश्रयः स्वक्ष स्वङ्गस्ततानन्दो नन्दिज्योतिगणेश्वरः विजितात्मा विधेयात्मा सत्कीर्तिश्चिन्न संशयः उदीर्णः सर्वतश्चक्षुरनीसः शाश्वत स्थिरः भूषयो भूषणो भूतिर्विशोकशोकनाशनः अर्चिष्मालर्चितः कुम्भो विशुद्धात्मा विशोधनः अनिरुद्धो प्रतिरदा प्रद्युम्नो मितविक्रमः कालनेमिनिः वीरः सौरिः सूरजनेश्वरः त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः कामदेवः कामपालः कामी कार्तकृतागमः अनिर्देशवपुः विष्णु वीरोऽनन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृद्ब्रह्म ब्रह्म ब्रह्मविवर्धनः ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः महाक्रमो महाकर्मा महातेज महोरगः महाक्रतुर्महायज्वा महायज्ञो महाहविः तव्यस्तवः प्रियस्तोत्रम् स्तुतिस्तोतारणप्रियः पूर्णः पूरयिता पुण्या पुण्यकीर्तिरनामयः मनोजवर्तीर्थकरो वसुरेता वसुप्रियः वसुप्रदो वासुदेवो वसुर्वसुमनाहविः सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः सूरसेनो यदुश्रेष्ठः सन्निवासः सुयमुनः भूतवासो वासुदेवः सर्वसुनिलयो नलः दर्पः दर्पदो दृप्तो दुर्धरोधापराजितः विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्ता शतमूर्तिः सतारणः एकोनैकस्तवः कः किम् यत्तत्पदमनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी वीरः विषमः शून्यो घृताशीरचलश्चलः अमानीमानदो मान्यो लोकस्वामी त्रिलोकधृत् सुमेधा मेधजो धन्य सत्यमेधाधराधरः तेजो वृषो द्युतिधरः सर्वस्तत्रभृताम्बरः प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् समावर्तो निवृतात्मा दुर्जयो दुरतिक्रमः दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिः शुभाङ्गो लोकसारङ्गः सुतन्तु तन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः उद्भवः सुन्दरः सुन्दो रत्ननाभ सुलोचनः अर्को वाजसनः शृङ्गी जयन्तः सर्वविजयी सुवर्णबिन्दु रक्षोभ्यः सर्ववागीश्वरेश्वरः महाह्रदो महागर्तो महाभूतो महानिधिः कुमुदः कुन्दरः कुन्द पर्जन्यः पावनोऽनिलः अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः सुलभः सुरतः सिद्धः शत्रुजित् शत्रुतापनः न्यग्रोधो दुम्बरो स्वस्तश्चाणुरान्ध्रनिषूदनः सहस्राक्षैः सप्त जिह्वा सप्तैधा सप्तवाहनः अमूर्तिरनगोचिंसो भयकृद्भयनाशनः अनुर्बृहत्कृशस्थूलो गुणद्भिर्निर्गुणो महान् अदृतस्वदृतस्वश्च प्राग्वांसो वंशवर्धनः भारभृत्कलितो योगी योगी स सर्वकामदः आश्रमश्रमणक्षामः सुवर्णो वायुवाहनः धनुर्धरो धनुर्वेदो दण्डो दवैतादमः अपराजित सर्वसहो नियन्ता नियमो यमः सत्त्ववान् सात्विकः सत्त्वा सच्च धर्मपरायणः अभिप्राय प्रियर्होर्ह प्रियत्व प्रीतिवर्धनः विहाय सकते ज्योतिस्सुरुचि उत भुग्विभुः रविद्विरोचनः सूर्यः सविता रविलोचनः अनन्तो हुत भुग्भोक्ता सुखदो नैकदोऽग्रजः अनिर्भिन्नः सदा मशी लोकाधिष्ठानमद्भुतः सनातनस्तमः कपिलः कपिरव्ययः स्वस्ति दस्वस्ति कृस्वस्ति स्वस्ति भुक्स्वस्ति दक्षिणः अरोद्रः कुण्डली चक्री विक्रम्यूर्जित शासनः शब्दातिगः शब्दसः शिशिरः सर्वरीकरः अक्रूरप्येसलो दक्षो दक्षिणाक्षमिणाम्बरः विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः उत्तारण दुष्कृतिः पुण्यो दुःस्वप्ननाशनः वीरः रक्षणः सन्तो जीवनः पर्यवस्थितः अनन्तरूपो नन्तश्रीजितमन्युपयापः चतुरश्रोधवीरात्मा विदिशो व्याधिशो दिशः अनादिर्भूर्भुवो लक्ष्मी सुबिरो रुचिराङ्गदः जरणो जन जन्मादि भीमो भीम पराक्रमः आधारनिलयो धाता पुष्पहास प्रजागरः उद्भगः सत्पदाचारः प्राणद प्रणवपणः प्रमाणम् प्राणनिलय प्राणभृत् प्राणजीवनः तत्त्वम् तत्त्वविवेकात्मा जन्म मृत्युरातिगः भूर्भुवः स्वस्तरुस्तारः सविता प्रपितामहः यज्ञ यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः यज्ञभृद्यज्ञ कृद्यघ्नी यज्ञभुग्यज्ञ साधनः यज्ञान्तकृद्यज्ञ गुह्या मन्नमन्नादयेव च आत्मयोनिस्वयम् जातो वैकारः सामगायनः देवकीनन्दनः स्रष्टा क्षीरीश पापनाशनः शङ्खभृन्नन्दकी चक्री सार्धधन्वा गदाधरः रदाङ्गपाणिलक्षोभ्यः सर्वप्रहरणायुधः श्री सर्वप्रहरणायुध नम इति वनमाली गदी सार्थी शङ्की चक्री च नन्दकी श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतुः वनमाली गदी सार्थी शङ्की चक्री च नन्दकी श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतुः वनमाली गदी सार्थी शङ्की चक्री च नन्दकी श्रीमान्नारायणो विष्णुर्वासुदेवोऽभिरक्षतुः इदीदम् कीर्तनीयस्य केशवस्य महात्मनः नाम्नाम् सहस्रम् दिव्यानाम् अशेषेण प्रकीर्त्यतम् यैदम् शृणुयान्नित्यम् यश्चापि परिकीर्तयेत् नाशुभम् प्राप्नुयात् किञ्चित् सोमुत्रेह च मानवः वेदान्तको ब्राह्मणस्य क्षत्रियो विजयी भवेत् वैश्योतन समुद्रस्य शूद्रः सुखमवाप्नुयात् धर्माद्धि प्राप्नुयात् धर्मा मर्दाद्धि चार्थमाप्नुयात् कामानवाप्नुयात् कामी प्रजाद्धि प्राप्नुयात् प्रजाम् भक्तिमान्यस्तदोत्ताय शुचिः सद्गतिमानसः सहस्रम् वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् यश प्राप्नोति विपुलम् ज्ञाति प्राधान्यमेव च अचलाम् श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् न भयम् क्वचिदाप्नोति वीर्यम् तेजश्च विन्दति भवत्य रोगो ज्युतिमान् बलरूपा गुणान्वितः रोगात्तो मुञ्चते रोगात् बद्धो मुच्येत बन्धनात् भयान्मुच्येत भीतस्सु मुच्येतापन्न आपदः दुर्गाण्यतितरत्यासु पुरुषत् पुरुषोत्तमम् स्तुवन्नाम सहस्रेण नित्यम् भक्ति समन्वितः वासुदेवाश्रयो मत्यो वासुदेव परायणः सर्वपाप विशुद्धात्मा याति ब्रह्म सनातनम् न वासुदेव भक्तानामाशुभम् विद्यते क्वचित् जन्म मृत्यु जर व्याधि भयम् नैवोपजायते इमम् स्तवमधीया न श्रद्धा भक्ति समन्वितः युज्येतात्मा सुखक्षान्ति श्रीतुति स्मृति कीर्तिभिः न क्रोधो न च मात्सर्यम् न लोभो नासुभामतिः भवन्ति कृत पुण्यानाम् भक्तानाम् पुरुषोत्तमे द्यौस चन्द्रार्क नक्षत्राम् खम् दिशो भूर्मघो दधिः वासुदेवस्य वीर्येण विधृतानि महात्मनः ससुरासुर गन्धर्वम् सयक्षोरगराक्षसम् जगद्वसे वर्ततेदम् कृष्णस्य सचराचरम् इन्द्रियाणि मनो बुद्धिः सत्त्वम् तेजो बलम् धृतिः वासुदेवात्मकान्याहू क्षेत्रम् क्षेत्रज्ञ एव च सर्वागमनमाचार प्रथमम् परिकल्पते आचार प्रभवो धर्मो धर्मस्य प्रभुरच्युतः ऋषयः पितरो देवा महाभूतानि धातवः जङ्गमाजङ्गमम् चेदम् जगन्नारायणोद्भवम् योगो ज्ञानम् तथा साङ्ख्यम् विद्या शिल्पादिकर्म च वेदशास्त्राणि विज्ञानमेतत् सर्वं जनार्दनात् एको विष्णुर्महद्भूतं पृथुग्भूतान्यनेकसः त्रिलोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः इमं स्तवं भगवतो विष्णुर्व्यासेन कीर्तितम् पटेज इच्छेत् पुरुष श्रेय प्राप्तुं सुखानि च विश्वेश्वरमजं देवं जगतः प्रभुमव्ययम् भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् न ते यान्ति पराभवम् ओ नम इति अर्जुन उवाच पद्मपत्र विशालाक्ष पद्मनाभसुरोत्तम भक्तानामनुरक्तानां त्राता भवजनार्दन श्रीभगवानुवाच यो मां नाम सहस्रेण स्तोतमिच्छति पाण्डव सोऽहमेकेन श्लोकेन स्तुत एव न संशयः स्तुत एव न संशय ओ नम इति व्यास उवाच वासनद्वासुदेवस्य वासितं भुवनत्रयम् सर्वभूतनि वासोऽसि वासुदेव नमोऽस्तु ते श्रीवासुदेव नमोऽस्तु तवो नम इति पार्वती उवाच केनोपायेन लघुना विष्णुर्नाम सहस्रकम् पठ्यते पण्डितैर्नित्यं श्रोतमिच्छाम्यहं प्रभो ईश्वर उवाच श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने श्रीराम नाम वरानन ओ नम इति ब्रह्म उवाच नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः सहस्रकोटियुगधारिणे वो नम इति सञ्जय उवाच यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीविजयो भूतिर्ध्रुवा नीतिर्मतिर्मम श्रीभगवानुवाच अनन्याश्चिन्तयन्तो मां ये जना पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृताम् धर्म संस्थापनार्थाय सम्भवामि युगे युगे आर्ता विषन्ना शिथिलाश्च पीता घोरेषु च व्याधिषु च वर्तमाना सङ्कीर्त्य नारायण शब्दमात्रं विमुक्त दुःखासुखिनो भवन्तु कायेन वाचा मनसेन्द्रियैर्वा बुद्धात्मना वा प्रकृते स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि।